इन्द्रस्यन्तुत्वा भरुतो विश्ववेदधाते त्वष्टावत्सु जवन्द्रधातु जवस्ते अर्वन्नीतो गुहायश्चेने वात उदयो च रत्परीत्तः तेन त्वम् वाजिन्बलवान्बलेनाजिञ्जयसमरे पारयिष्टो तनोष्टे वाजिन् तन्वान्नयन्ति वाममस्मभ्यम् धावतु शर्मयतुभ्यम् अकृतो महो धरुणाद् देवो दिवि वज्रोदिस्वमावीमीयात् यमो मृत्युरघमारोदिर्दृश बभ्रुः सर्वास्त्रामीलजण्डः देवजनास्तेनस्तिवांसस्ते अस्माकम् परिवृञ्जन्तु वीरान् मनसाहो वीरहृदेन शर्वायास्त्र उतराज्ञे भवाय नमस्येभ्यो नमयेभ्य कृणोम्यन्यत्रास्मदघवेशालयन्तु राय ब्रह्म अघवेशाभ्यावधात् विश्वे देवामरुतो विश्ववेदः अग्नेशो वावरुणः पूतरक्षावातावज्ञन्यजो सुमरतौ स्याम सम्भवमनाम् शिखम्भोदेर्नमामसि अमीयविव्रतास्तनताम् वत्सन्नमयामसि अहङ्गभ्राभिमनतावाहम् शिवम चित्तमनुचित्तभिरेत मम वचेषोदयालक्षणमिमयातमनोत्मारेत ओदे ओदौ मयिन्द्रश्चाग्निश्चाध्यास्मेदम् सरस्वती अश्वत्थो देवदस्त्रीयस्यामितो दिवि तत्रामृतस्य चक्षरम् देवा कुष्ठममन्वत हिरण्यलीनो राजरध्यरण्यबन्धना दिवि तत्रामृतस्य पुष्पम् देवा कुष्ठममन्वत गर्भो अस्योडधीनाम् गर्भो हिमवतामुत गर्भो विश्वस्य भूतस्येवम् मे अगरजम् कृधि गावोषधय सोमराज्ञेर्वह्मे शतवीचक्षणाः बृहस्पतिप्रसूतास्तानाः मुञ्चम् त्वम् भरतः मुञ्चन्तो मा च पथ्याः रथो वरुण्याः धुता अतो यमश्च पद्मेषाद्विश्वस्माद्देवगिद्भिषात् यच्चक्षुरामनसा यच्च वाचो वाग्रतो यत्स्वपन्ताः सोमस्तानि स्वधया नः पुनातु अभिभो यज्ञाभिभोरग्निरभिभो सोमाभिभोरिन्द्रः अभ्याहम् विश्वाप्रतनायथाम् देवावेधे वाग्निहोत्रा इदम् हरिः सदास्तु मित्रावरुणा विवर्षिता प्रजावक्षेत्रम् मधुरेवृन्वतम् बाधेधाम् दूरम् निर्दिम्बराले कृतम् चिदेन प्रमोमुक्तमस्मत् इमम् वीरमनोहरिणद्धमुग्रमिन्द्रम् सखायो अनुसम्रभद्धम् ग्रामयिदम् गोजितम् मज्जमाहंशयन्तमज्मप्रवृणन्त मोदयसा इन्द्रो जयाधिनपराजयात अधिराजो राजसुराजयातये चर्प्रत्यरीड्यो वन्द्यश्चोपसद्यो नमस्यो भवेह त्वमिन्द्राधिराजश्रावस्यस्त्वम् भूरभिभूतिर्जनानाम् त्वम् दैवेर्विष इमामि राजा युष्मक्षत्रमदन्ते अस्तु प्राच्यादिशत्वमिन्द्राराजो वीत्यादिशो वृत्रहम् शत्रुहोधि यत्रयन्ति श्रोत्यास्तज्जितम् ते दक्षिणगोरिषभये हव्याः अभित्रेन्द्रवरीवतः पुरात्माधूमे वयाम् युग्रम् जयतारम् पुराणामानमेजम् यो अद्यसेन्योजाम् सन्नमुदीरते इन्द्रस्य तत्र बाहूलवन्तम् परिदद्मः परिदद्वरिन्द्रस्य बाहूदमन्तम् दातुस्तायतान्नः देवसमितः सोमराजन् सोमसम्माहृणः स्वस्तये देवानः सूर्यो दाद्यौरदातृव्यदात् तिस्रः सरस्वतीरसीताविषदोषणम् यज्ञो देवोरीरासिम् चन्धन्वन्युदकम् तेन देवप्रसूयनेदम् लोढयताभिषम् भूतासा च गर्थारसम् विषम् आवृषायश्वश्वनिः मध्यस्तत्रगरस्वज यथाङ्गम् वर्धताम् शर्वस्तेन योषितविद्यहि येन कृशम् वायन्ति येन हिम्रम् चातुरम् तेनास्य ब्रह्मणस्पते धनुरिवादायापसाः आहन्तानोमि देवसो अधिद्यामि वधन्वरि क्रमस्पर्शरिव रोहितमनवग्लादयासदा यथायम् वाहो अश्विना समैति सञ्च वर्तते एवामामभिदेवनः समैतु सञ्च वर्तता आहङ्खेदामि देवनो राजाश्च पृष्ट्यामेव रेष्मच्छिन्नम् यथाणम् मयि रेष्टतः मनः आञ्जनस्य मधुकस्य कुष्ठस्य नराजस्य च तरोभगश्च हस्ताभ्यामनुरोधरे सन्तानम् वा बृहस्पतिः सन्तानम् सविताकारत् सन्तानम् मित्रो हरियमा सन्तानम् भगो अश्विना सम्परमान् समभवानथो सञ्जामि मध्यमान् इन्द्रस्तान् पर्यहार्ताम् नाताग्ने सन्ध्यात्वान् अमीर्धमायन्ते केतोन् कृत्वानेकः इन्द्रस्तान् पर्यहार्ताम् नाताग्ने सन्ध्यात्वान् आदानेन सन्तानेनामित्राणाद्यामसि अपानायेषाम् प्राणासुनासोऽसमक्षितम् इदमादानमकरम् तपरेन्द्रेण संशीलम् अमित्रायेत्र न सन्ति तानज्ञाद्यात्वम् अयिराङ्गिराविन्द्राग्ने सोमो राजामेदिनौ इन्द्रो मरुत्वा नादानमित्रेभ्यः कृणोदुनः यदाे परावरत्याशुमत् देवात्मकाशे प्रपदमनसानुप्रभार्यम् यथा बाणस्तु संसितः परापदत्याशुमत् देवात्मकाशे प्रपदपृथिव्यानो सम्मतम् यथा सूर्यस्तेऽस्मयः परापदम् त्याशुमत् देवात्मकाशे प्रपदसमुद्रस्यानो यक्षरम् आयनेते परायणे दूर्वारोहतु पृष्ठिणीः उत्सोः वा तत्र जायताम् हृदो वा पुण्डरीकवान् अपामिदम् निगरम् समुद्रस्य निवेशनम् मध्ये हृदस्य नो गृहाः पराजेनामुखाः कृधि शिवस्य त्वा जलायो नाशाले परिव्ययामसि शीतक्रवाहिभुवाग्निकृणोतु भेषजम् विश्वजित्रायमाणायै मा परिदेहि प्रायमाणे त्यवाच्च सर्वम् नो रक्षचतुष्पाद्यच्च रस्वम् प्रायमाणे विश्वजिते मा परिदेहि विश्वजिद्विवाच्च सर्वम् नो रक्षचतुष्पाद्यच्च रस्वम् विश्वजित्कल्याण्यै मा परिदेहि कल्याणिद्विवाच्य सर्वम् नो रक्षचतुष्पाद्यच्च नस्वम् कल्याणि सर्वविदे मावरिदेहि सर्वविद्विवाच्य सर्वम् नो रक्षचतुष्पाद्यच्च नस्वम् त्वम् नो मेधे प्रथमागोभिरश्वेभिरागहि त्वम् सूर्यस्य रश्मिभिस्त्वम् नो अधिनिज्ञिराः मेधामहम् प्रथमाम् ब्रह्मन्मतीम् ब्रह्मजोतामिषिक्षुताम् प्रणीताम् ब्रह्मचारिभिर्देवानामवासे हुवे याम् मेधामृभवो विदुर्याम् मेधामधूरा विदुः ऋषजो भद्राम् मेधाम् याम् विदुस्ताम् मय्या वेदनामसि या ऋषयो भूतरुणो मेधाम् मेधाविनो विदुः तया मामद्य मेधयाग्रे मेधाविनम् कृणो मेधाम् सायम् मेधाम् प्रातर्मेधाम् मध्यम् दीनम् परि मेधाम् सूर्यस्य रश्मिभिर्वचता मेधयामहे परिक्षिप्तभेषजोदि विद्धभेषति रामेवाः समकल्पयन् नियन्येतवारम् पिप्पल्याः समावदन्ता यदीर्जन नादधि अदूरास्तान्यकलम् देवास्त्वादवपन् पुनः वातीकृतस्य भेदजीमसो चिकृप्तस्य भेदजीम् प्रत्रोहिगमेषु सच्च होतानव्यश्च दत्से स्वाञ्जाग्ने दन्नम् विप्रायस्वात्मभ्यम् चतुर्भजमायजस्वात् ज्येष्ठज्ञान् जातो विदुतो यमश्च मूलवर्षणात्परि बाह्येलम् अद्येलम् मेषद्दुरिताय विश्वादीर्घायत्ताय शरदाय व्याघ्रेल्यजनिष्टभेदो नक्षत्रदायायमानः सुवीराः सभावधेत् पितरम् वर्धयमानो मातरम् प्रवेदे चरित्रे इमम् मे अग्रे पूर्वम् अतो भीतेजयम् यदानम् अधिशोषयति अग्निष्टे निशमयतु यदि ते मनमुद्योतम् कृणोमि विद्वान् भेदम् यथानम् अधितोषयसि देवेन दानुम्मदितम् मत्तम् रक्षासस्परि कृणोमि विद्वान् भेदम् यदानम् अधितोषयति पुनस्त्वादुरप्सरः पुनरिन्दः पुनर्भगाः पुनस्त्वादुर्विश्वे देवाय रामम् अधितोषसि मा ज्येष्ठम् वदेनमग्रेणात्परिवार्येन सकार्या पाशान् विशेषम् प्रजानन्तव्यम् देवानुजान् सर्वे उन्मुञ्च पाशांस्त्वमग्रदेशाम् त्रयश्चभिरुत्सेतादेभिलासम् सग्राह्या पाशान् विश्रेत प्रजानम् पिता पुत्रो मातरम् मुञ्च सर्वाः परिवृत्तो विभद्राङ्गे अङ्गार्पेत उत्सेतश्च विदेहमुच्यन्ताम् विमुचो हि सन्ति भ्रूणग्निपोषम् दुरितानि वृक्ष्वा त्रिदेवामृजतैतदेनश्चतरेणन्मनुष्येषमले ततो यदित्वाग्राहीरानेताम् देवा ब्रह्मणानाशयन्तो बलीदेर्धूमान् प्रविशानुवात्मन्नुधारान् गच्छोदवारीहारान् नयेनाम् प्रेणाम् अनुताम् विनश्चन् भ्रूणग्निपोषम् दुरितानि वृक्ष्वा द्वादशहारिहेतम् धृतस्यावृष्टम् मनुष्यैरदाति ततो यदित्वाग्राहीरानेताम्ते देवा ब्रह्मणानाशयन्तो यद्देवादिर्वहेरनम् देवादश्चमावरम् आदित्यास्तस्मान्नो यूरमृतस्यर्वेण मुञ्चत मृतस्यर्तेनादित्याय तत्रा मुञ्चते हराः यज्ञैयज्ञवादशिक्षम् दोनोपाशे किम् वेदस्वता यजमाना सृजाद्यादियुक्पादः अरामा विश्वेवो देवाशिक्षम् दोनोपाशे किम् यद्विद्वांसो यदविद्वांसजेनाहम् दिरमामयन् योजन्नस्तस्मान्मञ्चत विश्वे देवासयोषः यदि जाग्रद्यस्वाम्येन घोरम् मातस्माद्भव्यम् च द्रुपदादेवमुञ्चताम् द्रुपदादेवमुञ्चाशिन्नस्नात्वामलादिव भूतम् पवित्रेणेवाद्यम् विश्वे शुम्भन्तु मैनसः यद्यामम् चक्रम् निखलम् तो अग्रे कार्षीमलान्नविदो न विद्यया नैव स्मते राजरितज्ञोहोऽयज्ञम् वैव स्मतक्रीणवद्भागधेयम् मधुभागो मधुनाशम् सृजाति मातुर्यदेन निहिरन्नागम्यत्वा पितापराद्धोलिहीरे यदीदम् मातुर्यदे वा पितुर्नः परिभ्रातः पुत्राच्चेतरेणागन् यावन्तो अस्मान् पितरस्तजम् ते तेषाम् सर्वेषाम् शिवो अस्तु मन्युः अवादित्यवप्रदेत्वम् यदस्मि नमस्तेन बलिनाचरामि इदन्तरग्ने अरुणो भवतुम्बाम् वेत्स सर्वान् इहैव सन्तः प्रतिरग्मनेन देवा देवेभ्यो निह रामयेन च अवादित्य धान्या यजसाहमिदम् ददत्ते अरुणाभरणानि अरुणास्यन्दरणा परस्मिन् दृतीरे लोके अरुणास्यामात् ये देवयानाः पितृयाणाश्च लोकाः सर्वान् ततो अरुणा आख्येदेव यतस्ताभ्याम् च करलिम्बीणाम् यक्षाणाम् गत्वमोपलिप्समानाः उग्रम् पश्येरुग्रजिगौरव्यात् सहसामनो दत्तारुणाः उग्रम् पश्येराष्ट्रभृत्युल्बीणाणि यदक्षवृत्तमनो दत्तम् न एतत् ऋणान्नो यमस्य लोके अभिरक्षुरायत् यस्मारुणयस्य जायामुपैमीयाचमानो अभ्यैमी देवाः देवाजम् वादिसम्मोत्तराम् मद्देवपत्नी अप्सरसामधीरम् यदेव्यम् ऋणाहम् गृणाम् यदास्यम् नग्नमुदरम् गृणामि वैश्वानराधिपावसिष्ठमुदिम् राजुकृतस्य लोकम् वैश्वानराय प्रतिवेदयामि यद्गृणम् सङ्गरो देवतासु स एतान् पाशान् विजितम् वेद सर्वानथ पक्वेन सरदम् भवेम वैश्वानरत्पवितामापुनादुयत्सङ्गरमभिधामाम् यासाम् अनाजानन्मनसायाचमानो यत्रत्रैणापरतत्सूवामि यदन्तरिक्षम् पृथिवीम् तद्यायन्मातरम् वितरम् वाजिहम् शिवा अयम् तस्माद्धारिहवत्यानो अग्निर्दन्नजादिसुकृतस्य लोकम् भूमिर्मादादीदन्नो चरित्रम् रातान्तरिक्षमभिषस्त्यानः जोर्नः पिता विद्याच्छम् भवादिजामि हृत्वा मामवत्सि लोकात् यत्रा सुभाद्रः सुकृतोपदम् निविहाय लोकम् तन्वास्वायाः अश्वाराङ्गैरक्रोधाः स्वर्गे तत्र पश्येम पितरौ च पुत्राय विषाणापाशान्विष्याद्यस्मद्यमुत्तमाधमावारुणाये दुःस्वप्नम् दुरितम् निःश्वात्मदधेम दुःखतस्य लोकम् यद्दारोणि मध्यते यच्चरण्याद्भूम्याम् मध्यते यच्च वाचा अयम् तस्माद्गारिहवत्यो नो अग्निर्जम् न राजसुकृतस्य लोकम् उदयगाताम् भगवती विदुरो नावतारणे देहामृतस्तयच्छताम् भेतो बद्धकमोचनम् विदेश्वलोकम् कृणुबन्धान् मुञ्चासि बद्धकम् योऽन्याय प्रच्युतो गर्भपथः सर्वानुक्षिरा एकम् भागम् परिदलानि यद्वान् विश्वकर्मन् प्रथमयदानि तस्य अस्माभिर्दत्तम् जलसः परस्तादच्छिन् मन्दम् तोरुसन्तरेव तदन्तम् त्वमन्वेकेतरम् दिनेषाम् दत्तम् विद्यमायानेन अवन्वेके तदत प्रयच्छान् दोदातुम् ते शिक्षान् स स्वर्ग एव अन्वारभेधा मनुसम्प्रभेधा वेदम् लोकम् दुग्धधानास्त चन्दे यद्वाम् भक्त्वम् परिविष्टमग्नौ तस्य रुद्रवेदम् प्रति संश्रेधाम् यज्ञयन्तम् मनसा बृहन्तमन्वारोहामि तपसाधयोरिः उपभूतात्मे परस्तात्रियेणागेशधनवाजम् वदेम शुद्धाः पूता योषितो यज्ञिरा इमा ब्रह्माहस्तेषप्रपृथक्सारयामि यत्कामिदमभिषिञ्जामि मोहमिन्दो भरुत्वाम् सदधातु तम् मे एतम् सदस्था परिवो ददाभिजंसे मधिमामाज्ञातवेदाः अन्वागन्ता यजमानस्वस्तितम् स्म जायेतवरेभ्योमन् ज्ञायेतस्मैरम्बरवेभ्यो मन्दे वा सदस्था विदलोकमत्र अन्वागन्ता यजमानस्वस्ति तामूर्तम् स्म गृणुता विरस्मै देवापितरो देवा यो अस्मि सो अस्मि सपरचामि सदामि स जेतदत्तान्मायोषम् नागे राजन् प्रतितिष्ठदत्रेतत् प्रतितिष्ठतु विद्धि पूर्तस्य नो राजन् स्वदेव सुमनाः दिवो नुमाम् बृहतोऽन्तरिक्षापाम् स्तोकोऽभ्यवक्तग्रधेन समिन्द्रियेण वयदाहमग्ने छन्दो सुकृताहंसृतेन यदि वृक्षादभ्यप्तर्नलम् दद्यद्यन्तरिक्षात् सवो वायुदेव यत्रास्पृच्छत्रम् वाचवासन्तु निर्वेदिम् पराजैः अभ्यञ्जनम् सुरभिरादवृद्धिर्हिरण्यम् वर्चस्तदु गोत्रिणामेव सर्वाः पवित्रा विचयताध्यस्मत्तम् माताम् महारादिः वनस्पतेवेत्त्वम् गोहि भोजा अस्मत्सखा प्रतरणः सुवीराः गोभिस्तन्नद्धोऽसिवेदयस्वास्थातादेदयदुजेत्त्वानि दिवस्पृथिव्या परिलोचमुद्भृतम् वनस्पतिभ्यः परिलाभृतम् सः अपामोज्वानम् परिलोभिराभृतमिन्द्रस्य वजलम् हविषादैरज इन्द्रस्य मुजो मरुतामनेकम् मित्रस्य गर्भो वरुणस्य नाभिः सलिमान्नो हव्यादिन्दुषाणो देवरथप्रदे हव्यादिर्भाय उपश्वादय पृथिवीमुदद्याम्बोरुत्रादेवन्दताम् निश्चेतम् जगत् सुन्दुभे सजोरिन्द्रेण देवेन्दोरात्रमीयासे सशत्रून् आक्रन्दजलमो अभिष्टनदुषिता बाधमानः अपासे सुन्दुभे दुच्छुनामित इन्द्रस्य पुष्टिरसीडयस्व प्रामोञ्जयन्तु केतुमद्दुम् दुभिर्वावदीतु समस्तपदन्तु नोरमास्माकमिन्द्ररचिनोदयन्तु विदधस्य मदासस्य लोहितस्य वनस्पते विदुल्पकस्य ओषधेवोच्छेदप्रिषितम् च न यौते बलासदिष्टतक्षे मुष्कावपश्यतौ वेदाहन्तस्य भेषजम् चीर्विचक्षणम् योऽन्योऽन्योऽशोऽन्यसल्पकः विगृहामो विसल्पकम् विद्रथम् हृदया वयम् परातमज्ञातम् यक्ष्मावधराञ्चम् सुमामसि सकलो नक्षत्राणि यन्त्रायानवतुर्वता भद्राहमस्मयेत्रायच्छम् निदम् राष्ट्रमसादिते भद्राहन्नो मध्यन्दीरे भद्राहम् सायमस्तु नः भद्राहन्नाहम् राजारात्रिः भद्राहमस्तु नः अहोरात्राभ्याम् नक्षत्रेभ्यः सौर्याचन्द्रमसाभ्याम् भद्राहमस्मभ्यम् नारयन्द्रकरसोऽवतङ्क्रीधि यो नो भद्राहमकरस्तायम् नक्तमथो दिवा तस्मै ते नक्षत्रराजकरसोऽवतरामः भगेन माशाम् शपेन साकमिन्द्रेण मेदिना क्रमे भगिनम् मापद्रान्तादयः येन वृक्षाम् अभ्यवयो भगेन वच्चरसानः तेन मा भगिनम् कृण्वभद्रान्तरादयः पूर्वसराभगो वृक्षे स्वाहीतः तेन मा भगिनम् कृण्वभद्रान्तरादयः कथदिताम् रादति देयामप्सरदा वयम् स्मरः देवाप्रहीणुत स्मरमरो मा मनोशोचतो असौ मे स्मरतादि प्रियो मे स्मरतादि देवाप्रहीणुत स्मरमरो मा मनोशोचतो यथा मम स्मरादतौ रामुष्याहम् कदाचन देवाप्रहीणुत स्मरमदो मा मनोशोचतो उन्मादयतमरुदरुदरन्तरिक्षमादया अग्नमुन्मादया त्वमसो मा मनोशोचतो निशेषविपत्रताद्योमिते देवाप्रहीणुत स्मरमदो मा मनोशोचतो अनुमतेर्मिदम् मन्यस्वाकोदेशमिदम् नमः देवाप्रहीणुत स्मरमदो मा मनोशोचतो यद्धावरधित्रयोजनम् पञ्चयोजनमाश्विनम् ततस्तम् पुनरायति पुत्राणाम् नोऽसः पिता यम् देव स्मरमसिम् चन्नप्स्वा आन्तःशोचारम् सहाध्या तन्ते तपाभिवरोणस्य धर्मणा यम् विश्वे देवा स्मरमसिम् चन्नप्स्वा आन्तःशोचारम् सहाध्या तन्ते तपाभिवरोणस्य धर्मणा यमिन्द्राणे स्मरमसिम् चन्नप्स्वा
अन्तःशोचोदानम् सहाध्या कन्ते तवामि वरुणस्य धर्माणामिन्द्राग्ने स्मरमतिम् चलामप्सान्तःशोचोदानम् सहाध्या कन्ते तवामि वरुणस्य धर्माणा यम् मित्रावरुणो स्मरमतिम् चलामप्सान्तःशोचोदानम् सहाध्या कन्ते नवामि वरुणस्य धर्मणा य इमाम् देवो मेघनामन्वन्धयन्तम् नामयवोनो ययोज यस्य देवस्य प्रशिराजामस्तपानमिच्छात्सवो नो विमुञ्चाय आहूतास्य विरोदर्षे रामस्यायोधम् पूर्वाव्रतस्य प्राश्नतेभावेधरे मृत्योरहम् ब्रह्मचारेरस्मेर्याजम् भूतात्पुरुषय्यमाय त्वमहम् ब्रह्मणा तपसाश्रमेणादैरम् मेघलयादिनामि श्रद्धायाधिता तपसोऽधि जातास्वशरीराम् भूतरिताम् बभूव सा नो मेघले मतिमाधेहि मेधामसो नोधेहि तप इन्द्रियम् च याम् त्वा पूर्वे भूतकृतरिमेधिरे सा त्वम् परिषदस्वाम् दीर्घायत्वाय मेघले अयम् वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमपहन्तम् शृणातु देवा प्रणातोष्टिः वृत्रस्येव शनीमलेः अधरोधर उत्तरेभ्य गूढप्रेशव्यामोऽस्त्रेपद वज्रेणावहृतश्रयाम् योजिनादिदमन्विच्छयो निनादिदमिद्याहे निरलोहद्रत्वम् श्रीमन्तमन्वम् च मनोपादया यदश्नाविवरम् कुर्व रिक्तम् वज्रमादरे स्कन्धानमुष्टे शातयन् वृत्रस्येव सजीपदेः यद्विवामि सम्पीवामि समुद्रयेव सम्पिवः प्राणानमुष्टे सम्पाय सम्पीवामो अमुम् वयम् यद्गिरामि सङ्गीरामि समुद्रयेव सङ्गिरः प्राणानमुष्टे सङ्गीर्य सङ्गीरामो अमुम् वयम् देवी देव्यामभिजाताभिषञ्जामस्योषधे तान्तानि तत्रिकेशेभ्योऽसिंहनायखामहे ब्रह्मरत्नाञ्जलयाजातानुवर्षीरसस्कृति यस्ते केशो अवद्यते समो रोयश्च पृष्ठते इदन्ताम् विश्वभेद्याभिजिम् चामि मेरुधा ेभ्यः अभीषु नामेनासम् जामेनानुमेया केशाः नटायैव वर्धन्ताम् शेष्णस्त्रे अधिकाः परि ब्रह्ममूलमाग्रम् गच्छति मध्यमम् यामयौषधे एषाः नटायैव वर्धन्ताम् श्रेष्ठस्ते अधिकास्परि त्वम् मेरुधाम् श्रेष्ठतमाविश्रुतास्योषधे इमम् मे अद्य पौरुषम् केवमशिनम् कृधि क्लीनम् कृध्योपशिनमो गुरीरिणम् कृधि अथास्येन्द्रोग्रामभ्यामुभेभिरत्मान्यौ क्लीर क्लीनम् तागरम् मध्ये मध्यम् सागरमसन्तागरम् गुरीरमस्य चेदकुम्भम् चेदत्मति एतेनाद्यौ देवकृतेयोस्तिष्ठदृष्ट्यम् एतेभिरग्निसंयायुष्याधिमुष्कयोः यदाणम् कलिगो नेष्टयो विन्दम् च स्मरा एवाभिरग्निदेशेवामुष्याधिमुष्कयोः यस्तिकारो लोहितसुभागम् करणे मम छलन्तमप्रदाणा स्वयस्यम् संविधानाः तयाहस्तपर्ण्या हृदयम् शोषयामि ते शुष्यतुमनीते हृदयमथो शुष्यत्वास्यम् अथो निशुष्यमाङ्कामेनासो शुष्कास्याय सम्मरणीयमुष्पादाभृकल्याणि सन्नोदा अमोञ्चमाञ्च सन्नोदसमानम् हृदयम् कृते यतोदकमपुरपुषो अशुष्यत्यास्यम् ेवादिशुष्यमाङ्कामेनाथो शुष्कास्याय यथा विच्छिद्य सन्दधात्य हिम् पुनः एवागामस्य विच्छिन्नम् सन्धेरियावते जगत्सदः पितरम् मातरम् च कौदन्तौ ब्रह्मणस्तदे शिवो गौणुजातवेदः प्रेह्यमत्तम् जलमत्तम सोमाशमसोदिरम् एषवाम् भावो निहितो रत्नभेदायन्तौ माह्यम् शिष्टम् पितरम् मातरम् च ौ समङ्गलौ अन्यत्र वाञ्छोरम् तन्वारन्तौ माह्यम् सृष्टम् पितरम् मातरम् च वायुरेणा समग्रहष्टापोषाय ध्रियताम् इन्द्राभ्योऽधिब्रवद्रुद्रो भोम्ने ते गच्छतो लोहीतेन स्वधीतिनामि सुरम् कर्णयोः कृधि अकर्तामश्विना लक्ष्मणस्तु प्रजया बहु यदा चक्रुर्देवासुरायथामनुष्या उत एवासहस्रपोषाय कृणुतम् लक्ष्माश्विना उच्छ्रायस्त बहुर्भवस्ते नमाय मृणीर्विश्वापात्रायमात्रायञ्जाधीर आशृण्वन्तयवम् देवै यत्र त्वाच्छावदामधि तदुच्छ्रयस्मद्यौरेव समुद्रये वैद्यक्षेतः अक्षेतास्तौ वदनोऽक्षेताः सन्तु नाशयाः वृणन्तो अक्षेताः सन्तत्तारस्सन्तक्षेताः। ओम्
इति षष्ठम् काण्डम् समाप्तम् अथ सप्तमम् काण्डम् ओम्
धीरेवाय अनायम् वाचो अग्रम् मनसा वायेव लम्भुतानि तृतीयेण ब्रह्मणा वावृधानास्तु नीलेणामन्वधेनामधेनो सरेण पुत्रः पितरम् समादरम् सदोर्भूवत्सभूवत्त्वनार्मघः सत्यावोर्णोरन्तरिक्षम् स्वास्त इदम् विश्वमभवत्सा भवत् अथर्वाणम् पितरम् देवबन्धुम् मातुर्गर्भम् विदुरतम् युवानम् जैमै यज्ञम् मनसाचिकेत प्रणोवोजस्तमिहेह ब्रह्मः अजाविष्टा जलयन् कर्वराजसहिर्वराय धातुः स प्रत्युरेर्धरुणम् मद्भोरग्रम् सरातम् वा तम् वा मैरयत एकयाजदशभिश्चातुः वेद्वाभ्याविष्टयेम् सत्या च त्रिसभिश्चर्वाजयुद्धर्वायदाम् च यज्ञेन यज्ञमायन्दरेवास्तानि धर्माणि प्रणहान्याहम् तेहनाकम् महिमानस्तरम् दयत्रपूर्वे साध्याः सन्ति देवाः यज्ञो बभूवदाभूवृधे पुनः स देवानामधिपजन्मभूवसो अस्माभुद्रवेणमादधातु यद्देवादेवान्मनसारञ्जेन मयेम तत्र परमेव्यो मन्पश्येम सूर्यस्य यत्पुरुषेण अभिजायज्ञम् देवानन्मदास्मादो यद्विहव्येदे मुग्धा देवा उदधुनादयन्तोदरोरङ्गे स्पुरुधायजन्त यैमै यज्ञम् मनसा जगेरप्रणोदस्तमिहेह ब्रह्मः अदीतव्यौरदीतिरन्तरिक्षमदीतिर्माता विलासपुत्रः विश्वे देवादीतिष्पञ्चजनादीतिर्जातमदीतिर्जयित्वम् मयि मोषु मातरम् भूमृतानामृतस्य पत्नी भवसेवामहे त्वे क्षत्रामजम् देवरोजेम् सुवर्माणम् सुप्रणीतम् सुत्राणाम् पृथिवीञ्जामानेहसम् सुधर्माणमेजम् सुप्रणीतम् दैवेन भावम् सवित्रामनाजसोऽस्रावन्ते मारोहे मा स्वस्तये वाजस्य नु प्रसरे मातरम् महेमदे जन्नामवचसागरामहे यस्या उपस्थ उर्वान्तरिक्षम् सानश्रम त्रिवरोधम् निरक्षात् पुत्राणामीतेरकारिषमदेवानाम् तेषाम् हिधामक्षमद्रियन्नैनान्नवस्थितश्चनाम् भद्राणि श्रेयः प्रेहि बृहस्पतिः पुरहेतादे अस्तु
अधेमस्यावरापेषिव्यावेशत्रम् गृणे सर्वानीरम् प्रभाजे पथामजरिष्टभूषा प्रभाजे दिवः प्रभाजे पृथिव्याः उभे अभिप्रियतमे सदस्याचवराजगति प्रजानन् भूषे माजानो मे सर्वास्व अस्माभयदमेन स्वस्तिराभिणि सर्वभीरोत्प्रायच्छन् प्रजेत प्रजानन् ोदेवयम् नरिष्येम कदाचन स्वदारस्तैहस्तादे परिपोषापरस्ताद्धस्तम् दधातु दक्षेणम् पुरम् नो नष्टमाय दुसम् नष्टेन गमेमहि यस्तेस्तनश्चो भूर्यस्वम् न सुखवो यस्त्राः तेन विश्वापुष्य शिवार्यास्वविदमिघातवेगः यस्ते मृदुस्तान युत्रो विश्वादेव केतुर्विश्वमाभूवदीरम् वामाधीर्मिद्युरादेव सत्यम् नोतमधीरश्मिभिः सूर्यस्य स्वराज मासमेति श्रावताम् प्रजापदेर्गृहितरोधम् विधाने येना सङ्गच्छा उपमासनिक्षाच्चारोपदानिविदसङ्गदेषु विद्मदे सभे नाम धनिष्ठानामवासि ये ते के च सभासदस्ते वेदन्तु समाजतः येषामहम् समाधीनानाम् वर्चो विज्ञानमादरे अस्याः सर्वस्याः संसदो माविन्द्रभैरम् कृणो यद्गोमनः परागतम् यद्बद्धमिह वेहवाः तद्दावर्तयामसि मयीवो रमताम् मनः यथा सूर्यो नक्षत्राणामुद्यम् तेजांसे एवा स्त्रीणाम् च पुंसाम् च दृढताम् वर्चादरे यावन्तो मनसमत्नानामायन्तम् प्रतिपश्यथ उद्यम् सूर्य इव सूत्राणाम् दृढताम् वर्चादरे अहित्यम् एवम् स विदारमोऽण्यो कलिक्रतम् अर्चामि सत्यतरम् रत्नधामभिप्रियम् मतिम् ऊर्ध्वायस्यामतिर्भारिद्युदत्समीमयि हिरण्यवायमेत सुस्वदुर्भवाय दित्रेवस्मानमस्मै वरिमाणमस्मै अथास्मभ्यम् सवितर्वार्याणि दिवो देवासो बाभूरे पश्वः देवस्य वितावरेण्योदधत्रत्नम् दक्षम् मृतृभ्यायोंषे पिबात् सोमम् अवदादेनविष्टे परित्वा चित्रमदे अस्य धर्माणि तान्द्रामिदस्तत्यतामाहम् वृणे सुमतिम् विश्ववाहाम् यामस्य कण्वादुभक्रमेणाम् सहस्रधाराम् महिषो भगाय बृहस्पते तमेतद्वद्धरेणम् ज्योतिरेणम् महते सौभागाय संशीतम् चित्सन्तरम् सञ्जीराभिविश्वायेण मनो वदन्तु देवाः दादादधातुनो रयिमेषानोदगतस्पतेः शरः पूर्णेन यच्छतु दादादधातु दाशुरे प्राचीम् जीवातु अक्षेताम् वयम् देवस्य धीमहि सुमतिम् विश्वराधः दाता विश्वावार्या दधातु प्रजागामाय दाशुषे द्रोणे तस्मै देवामृतम् संयायन्तु विश्वे देवादिभिः सजोषाः दाता रातिस्तादिवेदञ्जोषन्ताम् प्रजापादन्निभिपादन्नो अग्निः त्वष्टा विष्णुः प्रजया संरदाणो यजमानाय हृदयेण दधातु प्रणभस्वृषेरम् दिव्यम् नभाः उद्नो दिव्यस्य नोधातरीहा नो विश्याम् नग्रम् स्त्रतापनहिमो जघानम् प्रणभताम् पृथिवीरदारो आपश्चिदस्मै घृतमक्षरम् द्वियत्र सोमस्तदामित्तत्र भद्रम् प्रजापदिर्जनहि प्रजा इमा धाता दधातु मनस्य वाहन सञ्जानासम्मानसस्तयोमयि पुष्टम् पुष्टपदिर्दधातु अन्मद्यनो नो मदुर्यज्ञम् देवेषु मन्यताम् अग्निश्च हव्यमाह नो भवताम् दाशुषे मम अन्विदनुमदे त्वम् संसाशेषम् च नस्कृति जुषस्वहव्यमाहूतम् प्रजान्देहेरास्मनः अनोमन्यतामनुमन्यमानः प्रजावन्तम् वैमक्षीयमाणम् तस्य वयम् हेदसिमापि भूमसुवृषेकेनश्च सुमहतौ स्याम यत्ते नाम सुभवम् सुब्रवीते नोमते अनोमतम् सुदानो तेनानो यज्ञम् विश्वमारे सुवीरम् एवै यज्ञमनोमतिर्जगामसुक्षेत्रदायेषुदातम् भद्राक्षस्याप्रमादर्बभोमै यज्ञमावतु देवो अनोमजः सर्वमिदम् बभूमयत्तिष्ठति तस्यास्ते देवि सुमहतौ श्यामानुमले अनुमिमम् सरसेन समेत विश्वेव च सापतिम् दिव एको विभूरते जर्जनानाम् स पूर्यो नोदरमाविवाह सत्तम् वत्रनिलोपावृतरेकमित्तुरु अयम् सहस्रमानो दृशेकमीनाम् मतिर्ज्योतिर्ब्रह्मणि बृद्धः समीचीनसमीरन् अरेपधस्सजेरस्वरे मन्युमत्रमाश्च्युते गो दौर्स्वप्नम् दौर्जेत्यम् रक्षोभ्रमराय्याः दुर्णाम्ये सर्वा दुर्णादस्तास्मन्ना ददामते यन्न इन्दोकरत्यर्विश्वे देवा मरुतो यत् सर्गाः तदस्मभ्यम् सविता सत्यधर्मा प्रजापतिरनो निर्मिरच्छात् ष्ठा योपत्येतेऽप्रदेतोऽसोऽभिर्विष्णोपगम् वरुणम् पूर्वहोदिः यस्येदम् रतिः यद्विरोचते प्रजानदिविचकष्टे सदीभिः पुरा देवस्य रमणासोऽभिर्विष्णोमगम् वरुणम् पूर्वहोदिः विष्णोर्मुखम् प्रावोचम् वीर्याणि यो हस्कभायदुत्तरम् सहस्रम् विचक्रमाणस्त्रेधोरोगायः प्रदद्विष्णुस्तवदे वीर्याणि कूचरोगेष्ठाः परावधारणम् यात्परस्याः यस्याणेश्वरिकिरम् विभुवानानि विश्वाः उर्विष्णोमित्रमस्सोरुक्षयाणस्कृहे घृतम् घृतयोनेज्ञवाचिन्तिना इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदा समोढमस्य वाम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपादाभ्यः इतो धर्माणि धारयन् विष्णोः कर्माणि पश्य रजतोदानि वस्पदे इन्द्रस्य रजुजस्सनाः तद्विष्णोः परमम् पदम् ददा पश्यन्ति सूरजाः देव चक्षुरादरम् दिवो विष्णौ तव पृथिव्या महो विष्णौरोरन्तरिक्षात् हस्तो गृणस्व बहुभिर्वसव्यैरा प्रयच्छ दक्षिणादोदरसंज्ञात्।